एकषष्टितमं पृष्ठम् एकषष्टिः प्रथमा हास्यादीनां क्रमेण उदाहरणानि प्रदर्श्यन्ते। आकुञ्चपाणिमसितिं मूर्ध्निवेश्य मन्त्राम्भसां प्रतिपदं कृषतैः पवित्रैः
अत्र अपि मम अस्ति प्रथमवाक्ये आकुञ्च पाणि मशुचिं मम मूर्ध्नि
वेश्य मम मूर्ध्नि वेश्याम् सत्यं छन्दोभङ्गः अस्ति। आकुञ्जवाणिमशुचिं मम मूर्ध्निवेश्य सत्यं वस्तुतः मम इति भवेत् मन्त्राम्भसां प्रतिपदं कृषतैः पवित्रम् इति अस्ति
पवित्रे
हा वस्तुतः पवित्रे उत्तमं पवित्रे मूर्ध्नि इति वस्तुतः
विसर्गः
पवित्रे भवेत् वस्तुतः पवित्रे पवित्रे मूर्ध्नि इत्यत्र अनन्तरं तारस्वरं प्रथितथूत्कृतमदात्प्रहारम् हाहाहतोऽहमिति रोदिति विष्णुशर्मा हास्यस्य उदाहरणम् एतद् कश्चन विष्णुशर्मा इति नामकः कश्चन ब्राह्मणः अस्ति। सः ब्राह्मणः कीदृशः इति चेत् मन्त्राम्भसा प्रतिपदं पृषतैः पवित्रं तस्य मूर्धा अस्ति। मूर्धा नाम तस्य शिरः। तस्य शिरः कीदृशमस्ति इति चेत् मन्त्राम्भसां पृषतैः पवित्रं मन्त्रजलेन तस्य पृषतं नाम बिन्दुः मन्त्रजलबिन्दुभिः पवित्रं तस्य शिरः इत्युक्ते सर्वदा सः मन्त्रजलं शिरसि स्थापयति तादृशं पवित्रं मन्त्राम्भसां नाम मन्त्रजलानां पृषतैः जलकणैः तत् किं प्रतिपदं पुनः पुनः इत्यर्थः प्रतिपदं पवित्रं तादृशं पवित्रं तस्य मूर्धा पवित्रः अस्ति तस्य मूर्धा तस्मिन् मूर्ध्नि पवित्रे मूर्ध्नि पवित्रवादन्तः तलेल्ये काचित् वेश्य तस्याः अशुचिं पाणिम् आकुञ्च तस्याः अस्वच्छं पाणिमेवं कृत्वा पादम् एवम् आकुञ्च्य अशुचिं पाणिम् आकुञ्च्य तारस्वरं प्रथितथूत्कृतं प्रहारं मदा उच्चैः थू इति वदन्ति प्रहारं दत्तवती सा। तारस्वरं प्रथितथूत्कृतं यत्र थूत्कारः सम्यक् श्रूयते तादृश प्रथितथूत्कृतं प्रहारम् अदात् इति तदा विष्णुशर्मा हा हा अहं हतः इति विष्णुशर्मा रोदति। विष्णुशर्मा इति कश्चन ब्राह्मणः तस्य वेश्यायाः ताडनं प्राप्तव्यम् आपतितम् इति कस्मिंश्चित् प्रसङ्गे सः अतीव पवित्रः सः पवित्रगात्रः सा अशुचिं हस्तं तस्य चलति एवं पुट्टितवती एवं वर्णनं कृतमस्ति अतः हस्तरसस्य उदाहरणम् एषा एतादृशं सा एवं कृतवती इति तावदेव तस्य शिरः सर्वदापि मन्त्रजलेन पवित्रमपि शेषम् एषा अशुचिना हस्तेन घट्टितवती पवित्रमपि एवं कृतवती तथा तत्र किमित्युक्ते अत्र विष्णुशर्मनो आलम्बनविभाव अवन अळुवितेयु उद्दीपनविभाव ವೈವರ್ಣ್ಯ ಮುಂತಾದವುಗಳು ಅನುಭಾವಗಳು ಆವೇಗ ಚಾಪಲ್ಯ ಮುಂತಾದವುಗಳು ವಿಚಾರಿ ಭಾವಗಳು ಶ್ರದ್ಧಾವಂತನಾದ ವಿಷ್ಣು ಶರ್ಮನನ್ನು ಇಲ್ಲಿ ಉಪಹಾಸ
ಮಾಡಲಾಗುತ್ತದೆ
ಸಸ್ಯ ದೃಷ್ಟಿಯ ಕರುಣರಸ ಅಗ್ರೆ ಕರುಣರಸ करुणरसस्य पद्यं गद्यरूपेण विभज्य गद्य वस्तुतः एतदपि पद्यमेव आमातस्त्वरितासि कुत्र किमिदम् आदेवताः क्वाशिषः प्राणा कस्मिंश्चित् प्रसङ्गे काचित् मृता अस्ति तदा सर्वे रोदनं कुर्वन्तः सन्ति इति. ई श्लोकौ काश्मीरराजन मातेः मृषलादाक भट्टनारायणभरत चरमगीते इति आरोहितः. काचित् मृता अस्ति तदा सर्वे रोदनं कुर्वन्तः सन्ति. हा मातः त्वरितासि कुत्र, कुत्र त्वरिता, शीघ्रं कुत्र गता, किमिदम्? हा हा देवताः, हे देवताः, भवताम् आशिषः क्व? आशीर्वादं कृतवन्तः, शुभं भवतु, शतं वर्षाणि जीवतु इति आशीर्वादं कृतवन्तः, क्व आशिषः? दिक् प्राणान्, प्राणानां धिक्कारः भवतु. अशनिः पतितः, शिडिल् अशनिः एव पतितः अस्ति, एवम् अभवत्. कुतवः ते अङ्गेषु, अथवा तव अङ्गेषु अग्निरेव पतितः, मृता अस्ति, मृतमानस्य कारणं स्यात्. तव अङ्गेषु कुतवः अग्निः पतितः. दृशौ दग्धे, नेत्रद्वयमपि दग्धमभवत् अग्निना वा अशनिना वा दग्धमभवत्. इत्थं गर्गरमध्यरुद्धकरुणाः, पौराङ्गनाः गिरः वदन्ति, वाक्यानि वदन्ति, तानि वाक्यानि गर्गरध्वनिना, रोदनसमये गर्गरशब्दः भवति किल, गर्गरतया रुद्धमपि भवति, तादृशकरुणाः पौराङ्गनानां गिरः वचनानि तानि. चित्रस्थानपि रोदयन्ति, पुरजनाः सर्वापि तथा रोदनं कुर्वन्ति यद् दृष्ट्वा चित्रे यदि मनुष्याः सन्ति चेत् तेपि रोदनं कुर्युः. चित्रस्थानपि रोदयन्ति, एवमेव भित्तिः अपि शतदा कुर्वन्ति. एतेषां रोदनेन कल्लोकरभूत इति वदन्ति किल, भित्तयः अपि शतदा खण्डिताः भवेयुः, भग्नाः भवेयुः, तथा रोदनं कुर्वन्तः. भित्तिः अपि शतदा कुर्वन्ति, भित्तिगळन्नु कूड खण्डशः कुर्वन्ति एतासां रोदनवचनानि. एतद् कर्णार्थस्य उदाहरणं, रौद्रस्य उदाहरणं. कृतमनुमतं दृष्टं वा, यैरिदं गुरुपातकम्, मनुजपशुभिः निर्मर्यादैः,
मनुजपशुभिः निर्मर्यादैः,
भवद्भिरुदायुधैः,
भवद्भिरुदायुधैः,
नरकरिपुणासार्धम्,
नरकरिपुणासार्धम्,
तेषां सभीमकिरीटिनां,
तेषां सभीमकिरीटिनां,
अयमहम् अस्त्रं मेदो मांसैः,
अयमहम् अस्त्रं मेदो मांसैः,
करोमि दिशां बलिं,
करोमि दिशां बलिं.
भट्टनारायणस्य वेणीसंहारनाटकात् स्वीकृतं वाक्यम् एतत्. अश्वत्थाम पिता मृतः इति वार्तां शृणोति. पिता कः?
द्रोणः.
पिता द्रोणाचार्यः, द्रोणाचार्यः मृतः इति वार्ताम् एषः श्रुतवान्. श्रुत्वा कोपेन एतद् वदति, कृतं यैः एतद् कार्यं कृतं, द्रोणवधरूपं कार्यं यैः कृतमस्ति, तमहं मारयामि इति अन्यत्र अन्यः. कृतं यैः अनुमतं, ये एवं कर्तुम् अनुमतिं दत्तवन्तः. तत्र अश्वत्थामा हतः कुञ्जरः इति सर्वम् उक्त्वा अनन्तरं सः यदा मौनम् उपविष्टः तदा गत्वा मारितवन्तः किल. अतः ये एवं कर्तुम् अनुमतिं दत्तवन्तः तानपि, यैः कृतं यैः अनुमतं यैः दृष्टं, ये ये दृष्टवन्तः, पश्यन्तः अपि निवारणं न कृतवन्तः, अतः ये दृष्टवन्तः यैः दृष्टम् एव किम् एतत् सर्वं गुरुपातकं, महत् पापपातकं यदस्ति एतत् कार्यं तैः कृतं तैः अनुमतं
यैः कृतं.
तादृशाः ते सर्वे भवन्तः सर्वेपि सन्ति. कीदृशाः? मनुजपशवः, सर्वेपि मनुजपशवः, ये पश्यन्तः आसन् ते सर्वे मनुजपशवः. निर्मर्यादाः, तेषां मर्यादा एव नास्ति, सीमा किमपि करणीयं सीमा तु नास्ति. निर्मर्यादैः भवद्भिः उद्यतायुधैः, उदायुधैः, सर्वे आयुधं गृहीतवन्तः एव आसन्, कस्यापि हस्ते आयुधं नास्ति इति न, आयुधायुधैः भवति सर्वैः एवं सर्वं दृष्टं किल तान् सर्वानहं तेषां सर्वेषां नरकरिपुणा सार्धं नरकरिपुः श्रीकृष्णः श्रीकृष्णेन सह एतेषां सर्वेषामहम् अशृङ्मेधो मांसैः रक्तेन मेधसा मांसेन च असृक् नाम रक्तं मेधः नाम किं कोपु अंशः भवति किल मेधः तादृशम् अनन्तरं मांसम् एतैः दिशां बलिं करोमि स्वभीमकिरीटिनां सर्वेषां भीमः अपि अर्जुनः एतेषां सर्वेषां कृष्णेन सह एतेषां सर्वेषामपि अहं किं दिग्बलिं करोमि एतेषां रक्तेन मांसेन मेधसा च दिशां बलिं ददामि दिग्भ्यः बलिरूपेण वितरामि सर्वानपि एतः मारयिष्यामि अस्मिन् क्षेत्रे अर्थाभवः अत्र नाम रक्तं मेधः नाम मेधस्पुरु कोब्बु अनन्तरं मांसम् एतैः दिशां बलिं करोमि दिक्कुगळिगे बलिकोडतेने न ಭೀಮಸಹಿತ ಭೀಮಸಹಿತ ಸಭೀಮ ಕಿರೀಟಿನ ಭೀಮ ಮತ್ತು ಅರ್ಜುನನಿಂದ ಸೇರಿದಂತಹ ಎಲ್ಲರೂ ಇದಕ್ಕೆ ಅವರನ್ನು ಬಿಡದೆ ಸಭೀಮ ಕಿರೀಟಿನ ಸರ್ವೇಷಾಮಿ ನರಕ ನಿಪುಣಾಸಾರ್ಧಂ ಎಷ್ಟು ಸರ್ವೇಷಾಮಿ ಅಹಂ ದಿಶಾಂ ಬಲಿಂ ಕರೋಮಿ ಅಯಮಹಂ ಏಷೋಹಂ ಅಶ್ವತ್ಥಾಮ ಸರ್ವೇಷಾಂ ದಿಶಾಂ ಸರ್ವೇಷಾಮಿ ದಿಶಾಂ ಬಲಿಂ ಕರೋಮಿ ಏತದು ವೀರರಥಸ್ಯ रौद्रस्य वीरस्य च भेदः बहु अल्पः वयम् एवमेव इति वक्तुं न शक्नुमः रौद्रे किञ्चित् आकोपः बहु अधिकः भवति वीरे किञ्चित् न्यूनं भवति प्रकारेण वीरस्य पश्यामः अग्रे अस्ति क्षुद्रासन्त्रासमेनं विजहत
क्षुद्रासन्त्रासमेनं विजहत
विजहित इत्यस्य दोषः विजहत तत्र वाक्यं समाप्तम् सन्त्रासमेते ओके सन्त्रासमेतेन
क्षुद्रासन्त्रासमेनं विजहत
हरयः क्षुण्णचक्रे भकुम्भ युष्मद्देहेषु लज्जां दधति परममि सायकाः निष्पतन्तः सौमित्रे तिष्ठपात्रं त्वमसि नहि रुषाम्
त्वहं
मेघनादः किञ्चित् ब्रूभङ्गलीला नियमितजलधिम् मन्वेषयामि एतद् मेघनादस्य इन्द्रजितः वचनम् एतत् रावणस्य पुत्रः आसीत् किल सः वदन् अस्ति इदानीं सः रामः कुत्र अस्ति इति अन्वेषणं कुर्वन् अस्ति सः वदति क्षुद्राः हरयः हरयः कपयः हरिशब्दस्य बहवः अर्थाः सन्ति अत्र तु अर्थः अस्ति कपयः इत्यर्थः हे क्षुद्राः कपयः लघुलघु कपयः सन्त्रासमेनं विजहत यः इन्द्रजित् आगतवान् मेघनादः आगतवान् इति भयं न कुर्वन्तु भयं परित्यजन्तु अहं भवतः न पीडयामि सन्त्रासम् एनं विजहत किमर्थम् इति चेत् मम बाणाः भवताम् उपरि पतितुं लज्जाम् अनुभवन्ति कीदृशाः मम बाणाः इति चेत् क्षुण्णचक्रे भकुम्भाः चक्रः देवेन्द्रः देवेन्द्रसिंहः नाम तस्य गजः कः देवेन्द्रस्य गजः ऐरावतः तस्य कुम्भस्थलं यदस्ति तद् कुम्भस्थलं क्षुण्णं कृतवन्तः पीडां जनितवन्तः इत्युक्ते मेघनादः इन्द्रं जितवान् अस्ति किल इन्द्रेण सह युद्धकरणसमये बाणप्रयोगं कृत्वा कृत्वा ऐरावतस्य कुम्भस्थलं सर्वमपि सः सम्यक् पीडितवान् अतः क्षुण्णचक्रेभ कुम्भाः देवेन्द्रन ऐरावतद कुम्भस्थलवन्न पीडितवन्तः नन्न बाणगलु तादृशाः बाणाः युष्मद्देहेषु निष्पतन्तः मम सायकाः लज्जां दधति. भवतां शरीरे पतन्ति चेत् मम शराः लज्जाम् अनुभवन्ति, लज्जां दधति, लज्जां वहन्ति. मम सायकाः बाणाः युष्मद्देहेषु निपतन्तः, निष्पतन्तः वा निपतन्तः वा, मम अमी सायकाः एते बाणाः लज्जां दधति. अतः किं तात्पर्यम्? अहं भवताम् उपरि बाणप्रयोगं न करिष्यामि, चिन्ता करणीया नास्ति. अनन्तरं सौमित्रे लक्ष्मणः पुरतः अस्ति, तेन सह युद्धं करोति वा इति पृच्छति चेत्, सौमित्रे तिष्ठ, त्वं रुषां पात्रं न असि, भवान् मम कोपस्य पात्रं नास्ति, कुतः भवन्तमुद्दिश्यापि अहं प्रहारं न करोमि. त्वमपि रुषां पात्रं न असि. नन्वहं मेघनादः, किमर्थमित्युक्ते अहं कः? मेघनादः अस्मि अहम्. अतः साधारणैः सह अहं युद्धं न करोमि. केन सह युद्धं करोमि? युद्धं कर्तुमपि मम महापराक्रमे आवश्यकः. सः कः अस्ति इति चेत्, किञ्चित् भ्रूहङ्गलीलानियमितजलधिं रामवन्वेषयामि. रामः यदा समुद्रस्य पक्षे आगत्य स्थितवान्, मार्गं कल्पयतु इति समुद्रं प्रार्थितवान्, सेतुनिर्माणं कर्तुं समुद्रः उत्तरं न दत्तवान्, तदा रामस्य कोपः अभवत्. रामस्य कोपः यदा अभवत्, किञ्चिदेव भ्रूभङ्गं कृतवान्, धनुमपि गृहीतवान्, किञ्चित् भ्रूभङ्गं यदा कृतवान् तदा जलधिः नियन्त्रितः अभवत्, सः नियन्त्रितः अभवत्. अतः किञ्चित् भ्रूभङ्गलीलानियमितजलधिः कः? रामः. तादृशं रामं माम् अन्वेषयामि. रामः कुत्र अस्ति तस्य अन्वेषणं करोमि, भवतः सर्वान् अहं न पीडयामि. एषः यां नाटकद्वं किं
हनुमन्नाटके लिखितमस्ति.
अस्ति वा?
केन रचितमिति न.
हनुमन्नाटकं हनुमन्नाटकदि सत्यं. हनुमन्नाटके बहु प्रसिद्धानि पद्यानि एवमेव तत्र तत्र उदाहरणत्वेन दत्तानि. खण्डन हनुमन्नाटकम् इति एकं नाटकमस्ति, तद् भयानकरः. ग्रीवाभङ्गाभिरामम्
ग्रीवाभङ्गाभिरामम्
मुहुरनुपतति चन्दने वद्धदृष्टिः
मुहुरनुपतति चन्दने दत्तदृष्टिः.
पश्चार्धेन प्रविष्टः शरपतनभयात्
पश्चार्धेन प्रविष्टः शरपतनभयात्
भूयसा पूर्वतायम्
भूयसा पूर्वतायम्
दर्भैरर्धावलीढैः
दर्भैरर्धावलीढैः
श्रमविवृतमुखभ्रं शिविष्केण वर्त्मा पश्योदग्रप्लुतत्वात् विहति बहुतरम् शोकमुर्व्यां प्रयाति
शोकमुर्व्यां प्रयाति.
दुष्यन्तः शोकमुर्वी इति वदन्नस्ति. पश्यतु अग्रे पुरतः एषः किं हरिणः धावन्नस्ति. सः कथमस्ति? ग्रीवाभङ्गेन अभिरामं दृश्यते मध्ये मध्ये मुखमेवं कृत्वा पश्यतु. ग्रीवायाः भङ्गेन कण्ठवलनेन सः अभिरामं सुन्दरं दृश्यते. मुहुः अनुपतति, आगत्य आगत्य उत्पतति सः. चन्दने दत्तदृष्टिः, रथे एव दृष्टिं दत्तवान् अस्ति, चन्दने दत्तदृष्टिः अस्ति. पश्चात् शरपतनभयात् बाणः पतेत् इति भीत्या शरपतनभयात् पश्चार्धेन भूयसा पूर्वकायं प्रविष्टः. तस्य शरीरस्य पूर्वभागः यः अस्ति तं भागं पृष्ठतः विद्यमानः भागः प्रविष्टवान् अतीव वेगेन. तर्हि शुनकः कदाचित् वीत्य बालवर्तमपि भवति, तदा पूर्वकायं पश्चात्कायः प्रविशति. तद्वत् कृत्वा धावन् पूर्वकायं प्रविष्टः. अनन्तरं दर्भैरर्धावलीडैः, अर्धं जग्धवान् अस्ति दर्भम्, अर्धम् अवलीडमस्ति, तत्सर्वं त्यक्तवान् अस्ति. अर्धावलीडैः दर्भैः तथैव श्रमविवृतमुखभ्रंशिभिः, समवशात् मुखं विवृतं कृतवान् अस्ति. अतः तत्र सर्वत्र पतिताः सन्ति दर्भाः. तादृशैः दर्भैः कीर्णवर्त्मा, मार्गे सर्वत्र ते दर्भाः पतिताः सन्ति. तादृशः. अनन्तरं सः हरिणः प्रयाति, पश्य उदग्र प्लुतत्वा प्लुतं करोति प्लुतत्वात् तत् उदग्र नाम अधिक प्लुतत्वात् ततः वियति बहुतरम् अधिकम् आकाशे एव गच्छति उर्व्यां श्लोकं भूमौ स्वल्पम् आकाशे एव अधिकं च गच्छति वियति बहुतरम् उर्व्यां श्लोकं श्लोकं नाम स्वल्पं यथा स्यात् तथा प्रयाति वियति बहुतरं श्लोकम् उर्व्यां प्रयाति अत्र भयानकरः भयानक नाम हरिणस्य दृष्ट्या अत्यन्तं भयमस्ति किल अतः भयानकरः हरिणदृष्ट्या अग्रे बीभत्सरः भयङ्करबीभत्स उत्कृत्योत्कृत्य कृत्तिम् प्रथममथ पृथूत्सेध भूयां सिमांसानि अंसस्थिक् पृष्ठपिण्डाद्यवयवसुलभानि आर्तःपर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्काः अङ्कस्थादस्थिसंस्थम् कुटगतमपि द्रव्यमव्यग्रमस्ति कश्चन प्रेतः भूतप्रेतपृष्ठाचः अस्ति किल तादृशप्रेतः कश्चन श्मशाने इदानीं किं जातमस्ति इत्युक्ते शवानि बहूनि सन्ति तादृशमेकं शवम् अङ्के स्थापयित्वा खादन् अस्ति सः सः कथम् उत्कृत्य कृत्तिं कृत्तिः नाम चर्म चर्म एवम् उत्कृत्य कृत्तिं ज्ञायते वा प्रथमं चर्मनिष्कासनं कृत्वा अनन्तरं पृथूत् सेध भूयांसि मांसानि किं तत्र पूर्णानि यानि सन्ति उत्सेध अत्र उद्भिद्धु तादृशमांसानि यानि सन्ति तानि एव सेलेक्ट् कृत्वा पृथू नाम अधिकं पृथु उत्सेध मांसानि कुत्रत्यानि इति चेत् अंस स्थिक् पृष्ठ पिण्डाद्यवयवानि ಹೆಗಲು ತೊಡೆಯ ಭಾಗಗಳಲ್ಲಿ ನಿತಂಬ ಭಾಗಗಳಲ್ಲಿ ಹೆಚ್ಚು ಮಾಂಸ ಸಿಗುತ್ತಂತೆ ಅತಃ ಅಂಶ ಸ್ಥಿಕ್ ಪೃಷ್ಠಪಿಂಡಾದ್ಯವಯವ ಸುಲಭಾನಿ ಉಗ್ರ ಪೂತೀನಿ ಅತ್ಯಂತ ದುರ್ಗಂಧ ಭವತಿ ತಾದೃಶಂ ಮಾಂಸ ಉಗ್ರಪೂತೀನಿ ತಾದೃಶಾನಿ ಜಗ್ಧ ಅಗಿದ ಅಗಿದ ಚಿಂತಾ ಆರ್ತಃ ನಾವು ಬುಭುಕ್ಷಿತಃ ತಥಾಪಿ ಬುಭುಕ್ಷಿತಃ ಆರ್ತಃ ಪರ್ಯಸ್ತ ನೇತ್ರಃ ಆಕಡೆ ಕಡೆ ಕಣ್ಣು ಹೊರಳಿಸ್ತಾ ಇರತಕ್ಕಂತಹ ಪ್ರಕಟಿತ ದಶನಃ ಅಲ್ಲಿ ತೋರಿಸ್ತಾ ಇರತಕ್ಕಂತಹ ಪ್ರಕಟಿತ ದಶನಃ ಪ್ರೇತರಂಕಃ ಒಂದು ಪ್ರೇತ ದರಿದ್ರ ಪ್ರೇತ ಅಂತ ಹೇಳ್ತೇವೆ ಆ ರೀತಿ ಪ್ರೇತರಂಕಃ ಕರಂಕಾತ್ ಕರಂಕ ನಾಮ ಹೆಣದಿಂದ ತೆಗೆದಂತಹ ಇದನ್ನೆಲ್ಲ ಕರಂಕಾತ್ ಪ್ರೇತರಂಕಃ ಅಂಕಸ್ಥಾತ್ ಕರಂಕ ತನ್ನ ತೊಡೆಯ ಮೇಲೆ ಮಲಗಿಸಿಕೊಂಡಿರ್ತಕ್ಕಂತಹ ಹೆಣದಿಂದ ಅಂಕಸ್ಥಾತ್ ಕರಂಕಾತ್ ಅಸ್ಥಿ ಸಂಸ್ಥಂ ಅದೃಷ್ಟ ಮಾತ್ರ ಅಲ್ಲದೆ ಮೂಳೆಗಳಿಗಳೆಲ್ಲ ಅಂಟುಕೊಂಡಿರ್ತಕ್ಕಂತಹ ಸ್ಥಪುಟಗತಮಿ ಈ ಮೂಳೆಯ ಮೂಳೆಗೆ ಎಲ್ಲ ಸೇರ್ಕೊಂಡಿರ್ತಕ್ಕಂಥದ್ದು ಅಂಥದ್ದನ್ನು ಕೂಡ ಕ್ರವ್ಯಂ ಅವ್ಯಗ್ರಂ ಅಸ್ಥಿ ಅಂತಹ ಮಾಂಸವನ್ನೆಲ್ಲವನ್ನೂ ಕೂಡ ಉಳಿದ ಮಾಂಸವನ್ನು ಕೂಡ ಸಣ್ಣಗೆ ತಿಂತ ಉಂಟು ಖಾದತ್ತದೆ ಪ್ರೇತ ಖಾದತಿ ಪ್ರೇತ ಪಿಶಾಚ ಇತಿ ಚಿಂತೆ ಪಿಶಾಚ ಖಾದತ್ತದೆ ಮಾರುತಿ ಮಾಧವ ನಾಟಕ ಮಾರುತಿ ಮಾಧವ ನಾಟಕೆ ಸ್ವಶಾನಸ್ಯ ವರ್ಣನ ದೀಪತ್ತು ದೀಪತ್ತ ಇತ್ತೆ ನೋಡಿ ನಮಗೆ ಇದು ಗುಪ್ತ ಆಗ್ಬೇಕು ಗುಪ್ತಾಸ್ತಾಯಿ ಭಾವ ಸೈಕ್ಯ ಆಗಬೇಕು ತಾದೃಶ್ ಗುಪ್ತ ಆಗಿದೆ ತಾದೃಶ ರಸ ಅಪಿ ಕಥಂ ಆಸ್ವಾದ ಯೋಗ್ಯ ಕಥಂ ಭವತಿ ಸರ್ವೈಕ ನವರಸಾ ಅತೀವ ಆಸ್ವಾದ ಯೋಗ್ಯ ಭವಂತಿ ಕಿಲ ಎತ್ತ ಪಠನೇನ ಅಸ್ಮಕಮೇ ಅಸಹ್ಯ ಭಾವನಾ ಭವತಿ ಕಥಂ ಆಸ್ವಾದ ಯೋಗ್ಯ ಜುಗುಪ್ತಾಯ ನಿಗುಪ್ತ ಸಾಯಿ ಭಾವ ನಿಗುಪ್ತ ಅರ್ಥ ಅದ್ಭುತ ಅರ್ಥ ಅಗ್ರೆ ಚಿತ್ರಂ ಮಹಾನೇಶ ಪತಾವತಾರಃ
ಚಿತ್ರಂ ಮಹಾನೇಶ ಪತಾವತಾರಃ
ಕಾಂತಿ ರೇಷಾಭಿನವೈವ ಭಂಗಿಃ
ಕಾಂತಿ ರೇಷಾಭಿನವೈವ ಭಂಗಿಃ
ಲೋಕೋತ್ತರಂ ಧೈರ್ಯಮಹೋ ಪ್ರಭಾವಃ
ಲೋಕೋತ್ತರಂ ಧೈರ್ಯಮಹೋ ಪ್ರಭಾವಃ
ಕಾವ್ಯಾಕೃತಿ ನೂತನ ಏಷ ಸರ್ಗಃ
ಕಾವ್ಯಾಕೃತಿ ನೂತನ ಏಷ ಸರ್ಗಃ
ವಾಮನಮೂರ್ತಿ ಆಸೀತ್ ಸಾ ಝಟಿತಿ ತ್ರಿವಿಕ್ರಮ ಭವತಿ ತಸ್ಮಿನ್ ಪ್ರಸಂಗೆ ವರ್ಣಿತೆ ಚಿತ್ರಂ ಮಹಾನ್ ಏಷಃ ಅವತಾರಃ ಬತ ಏಷಃ ಅವತಾರಃ ಅಹೋ ಮಹಾನ್ ಬತ ಬತ ಇತ್ಯೇಕಂ ಆಶ್ಚರ್ಯ ಸಮಯೇ ಉದ್ಗಾರ ರೂಪೇಣ ಉಚ್ಯತೆ ಅಹೋ ಬತ ಮಹತ್ ಪಾಪಂ ಕರ್ತುಂ ವ್ಯವಸಿತಾ ವಯಂ ಇತಿ ಭಗವದ್ಗೀತಾ ಬತ ಅಹೋ ಇತಿ ಆಶ್ಚರ್ಯ ಉದ್ಗಾರ ಕರ್ತನ ಅಹೋ ಬತ ಮಹಾನೇಶ ಅವತಾರ ಕ್ವ ಕಾಂತಿ ಏಷ ಏತಸ್ಯ ಶರೀರಸ್ಯ ಕಾಂತಿ ಕೀದೃಶಿ ಕ್ವ ಕಾಂತಿ ಅಭಿನವ ಏವ ಭಂಗಿ ಅಸ್ಯ ಭಂಗಿ ಸ್ಟೈಲ್ ಅಸ್ತಿ ಕಿಲ ಏಷ ಅಭಿನವ ನೂತನ ಇವ ಅಸ್ತಿ ಲೋಕೋತ್ತರಂ ಧೈರ್ಯಂ ಅಸ್ಯ ಧೈರ್ಯಂ ಲೋಕೋತ್ತರಂ ಅಹೋ ಪ್ರಭಾವ ಕಾಪಿ ಆಕೃತಿ ನೂತನ ಏಷ ಸರ್ಗ ಸರ್ಗ ನಾಮ ಸೃಷ್ಟಿ ಬ್ರಹ್ಮಣ ನೂತನ ಇವ ಸೃಷ್ಟಿ ಏಷ ಅಸ್ತಿ ಇದು ಆಶ್ಚರ್ಯೇಣ ವದನ್ ಅಸ್ತಿ ಏತದ ಕುಶಂ ದೃಷ್ಟ್ವ ರಾಮಃ ವದತಿ ಇತಿ ಕೇಚನ ನಾನ ಏತಮೇವ ಕಿಂ ವಾಮನಂ ದೃಷ್ಟ್ವ ಪ್ರತತಿ ಇತಿ ಅನ್ಯಃ ಕೇಚನ ವದಂತಿ ಏವಂ ಅಷ್ಟ ರಸಾಃ ಅಪಿ ವರ್ಣಿತಾಃ ಉದಾಹರಣಂ ವರ್ಣಿತಾಃ ಅಗ್ರೆ ಏಷಾಂ ಸ್ಥಾಯಿ ಭಾವನಾಃ ಏತೇಷಾಂ ರಸಾನಾಂ ಸ್ಥಾಯಿ ಭಾವಃ ಸ್ಥಾಯಿ ಭಾವ ನಾಮ ರಸಸ್ಯ ಮೂಲ ಸ್ಥಿತಿಃ ಸ್ಥಾಯಿ ಭಾವಃ ಏನು ಸರ್ವ ಯಾವತಿ ಚೇತ್ ರಸ ರಸರೂಪೇಣ ಪರಿಣಾಮ ಪ್ರಾಪ್ನೋತಿ ಸ್ಥಾಯಿ ರಸಸ್ಯ ಮೂಲ ಸ್ಥಿತಿ ಯಾ ಅಸ್ತಿ ತಸ್ಯ ಸ್ಥಾಯಿ ಭಾವ ಇತಿ ನಾಮ ಸ್ಥಾಯಿ ಭಾವ ನಾಮ ಸ್ಥಾಯಿಯಾಗಿರ್ತಕ್ಕಂಥದ್ದು ಈ 9 ಸ್ಥಾಯಿ ಭಾವಗಳು ಎಲ್ಲರಲ್ಲೂ ಯಾವಾಗಲೂ ಇರ್ತವೆ ಅದಕ್ಕೆ ಬೇಕಾದ್ದೆಲ್ಲ ಸಿಕ್ಕಿದ ಕೂಡಲೇ ಮಾತ್ರ ಅವು ರಸವಾಗಿ ಪರಿಣಾಮ ಹೊಂದಿದ್ದಾವೆ ಈ ಸ್ಥಾಯಿ ಭಾವಗಳೇ ಹಿಂದೆ ಇದ್ರೆ ರಸ ಆಗಲಿ ಸಾಧ್ಯ ಇರೋದ್ರಿಗೆ ಸ್ಥಾಯಿ ಭಾವ ಸ್ಥಾಯಿ ನಮ್ಮ ಸರ್ವದಾಪಿ ತಿಷ್ಠಂತಿ ಸ್ಥಾಯಿ ತಾದೃಶ ಸ್ಥಾಯಿ ಭಾವನ ಪ್ರತಿರ್ಹಾಸಶ್ಚ ಶೋಕಶ್ಚ ಕ್ರೋಧೋತ್ಸಾಹೌ ಭಯಂ
ಸತಾ
ಗುಪ್ತಾ ವಿಸ್ಮಯಶ್ಚೇತಿ
ಗುಪ್ತಾ ವಿಸ್ಮಯಶ್ಚೇತಿ
ಸ್ಥಾಯಿ ಭಾವ ಪ್ರಕೀರ್ತಿತಾಃ
ಸ್ಥಾಯಿ ಭಾವ ಪ್ರಕೀರ್ತಿತಾಃ
ಅದು ಕ್ರಮಶಃ ಶೃಂಗಾರಸಸ್ಯ ಪ್ರತಿಹಿ ಸ್ಥಾಯಿ ಭಾವ ಹಾಸ್ಯರಸಸ್ಯ ಕರುಣರಸಸ್ಯ
ಶೋಕ
ವೀರರಸಸ್ಯ ರೋಗರಸಸ್ಯ
ಕ್ರೋಧ
ವೀರರಸಸ್ಯ
ಉತ್ಸಾಹ
ಭಯಾನಕ ರಸಸ್ಯ
ಭಯಭತ್ಸರಸಸ್ಯ
ಅದ್ಭುತ ರಸಸ್ಯ ಸ್ಥಾಯಿ ಭಾವಃ ಪ್ರಕೀರ್ತಿತಃ ಇದು ಅಕಸ್ಮಾತ್ ಹೇಳಬಹುದು ಯಾವ ರಸಕ್ಕೆ ಯಾವುದು ಸ್ಥಾಯಿ ಭಾವ ಓ ನೀವು 9 ರಸಗಳು 9 ಸ್ಥಾಯಿ ಭಾವಗಳನ್ನು ನೆನಪಿಟ್ಟುಕೊಳ್ಬೇಕು ಅಥ ವ್ಯಭಿಚಾರಿಣೋ ಬ್ರೂತೆ ವ್ಯಭಿಚಾರಿ ಭಾವಃ ಚ ಇತಿ ವದತಿ ನಿರ್ವೇದಗ್ಲಾನಿ ಶಂಖಾಖ್ಯಾಃ ತಥಾ ಸೂಯಾಮದಶ್ರಮಾಃ ಆಲಸ್ಯಂ ಚೈವ ದೈನ್ಯಂ ಚ
ಚಿಂತಾ
ಮೋಹ ಸ್ಮೃತಿರ್ಧೃತಿಃ
ಕ್ರೀಡಾ
ಚ ಫಲತಾ ಹರ್ಷಃ
ಆವೇಗೋ
ಜಡತಾ
ತಥಾ ಗರ್ವೋ
ವಿಷಾದ ಔತ್ಸುಕ್ಯಂ
ಗರ್ವೋ
ಇತಿ ಭವೇತ್ ಗರ್ವೇನ ನಿದ್ರಾಪಸ್ಮಾರ ಏವ ಚ
ನಿದ್ರಾಪಸ್ಮಾರ ಏವ ಚ
ಸ್ವಪ್ನಂ ಪ್ರಬೋಧೋ ಮರ್ಷಶ್ಚಾಪಿ
ಸ್ವಪ್ನಂ ಪ್ರಬೋಧೋ ಮರ್ಷಶ್ಚಾಪಿ
ಅವಹಿತ್ತಮತೋಗ್ರತಾ
ಅವಹಿತ್ತಮತೋಗ್ರತಾ
ಮತಿರ್ವ್ಯಾದಿಷ್ಟತೋನ್ಮಾದಃ
ಮತಿರ್ವ್ಯಾದಿಷ್ಟತೋನ್ಮಾದಃ
ತಥಾ ಮರಣಮೇವ ಚ
ತಥಾ ಮರಣಮೇವ ಚ
ತ್ರಾಸಶ್ಚೈವ ವಿತರ್ಕಶ್ಚ
ತ್ರಾಸಶ್ಚೈವ ವಿತರ್ಕಶ್ಚ
ವಿಜ್ಞೇಯಾ ವ್ಯಭಿಚಾರಿಣಃ ತ್ರಯಸ್ತ್ರಿಂಶದಮೀ ಭಾವಃ
ತ್ರಯಸ್ತ್ರಿಂಶದಮೀ ಭಾವಃ
ಸಮಾಖ್ಯಾತಾಸ್ತು ನಾಮತಃ
ಸಮಾಖ್ಯಾತಾಸ್ತು ನಾಮತಃ
ತ್ರಯಸ್ತ್ರಿಂಶತ್ ವ್ಯಭಿಚಾರಿ ಭಾವಃ ಸಂತಿ ನಿರ್ವೇದಃ ಗ್ಲಾನಿಃ ಶಂಕಾ असूय मदः श्रमः आलस्यं दैन्यं दैन्यं चिन्ता मोहः स्मृतिः धृतिः वृणिरा चपलता हर्षः आवेगः जडता गर्वः विषादः औत्सुक्यं निद्रा अपस्मारः स्वप्नः प्रबोधः अमर्षः अवहित्तम् उग्रः मतिः व्याधिः उन्मादः मनः त्रासः वितर्कः त्रयस्त्रिंशत् भावाः सन्ति. मरणमपि एकः भावः एव. मरणं नाम साक्षात् प्राणवियोगः न, तत्सदृशी अवस्था इति अन्तर्गते. इदानीम् एते त्रयस्त्रिंशत् भावाः सन्ति प्रायः. तस्य विवरणादिकं न पृच्छेयुः, सर्वेषाम् उदाहरणम् इत्यादि न स्यात् प्रायः. बहु कष्टं भवति. अपस्मारः एकः एतेषु भावेषु
गतवर्षस्य पुस्तके
तत्र साहित्यदर्पणे एतस्य एकैकस्यापि उदाहरणं लक्षणम् उदाहरणं सर्वं दर्शितम् इतोपि विस्तरेण. अलङ्कारशास्त्रे इति प्राथमिकग्रन्थः किं साहित्यदर्पणः, तत्र एकैकस्यापि उदाहरणं सर्वं बहु दीर्घं भवति. अत्र प्रथमः भावः कः अस्ति विचारिभावः? निर्वेदः इत्यस्य इदानीम् आक्षेपं करोति. निर्वेदस्य अमङ्गलप्रायस्य प्रथमम् अनुपादेयत्वेऽपि उपादानं व्यभिचारित्वेऽपि स्थायिभावत्व अभिधानार्थं. वस्तुतः निर्वेदः इत्येकः अस्ति, एषः अमङ्गलः. निर्वेदः नाम किं किमपि नास्ति, एतादृशः एकः भावः. किञ्चित् अमङ्गलः, उत्साहोऽपि नास्ति, शृङ्गारोऽपि नास्ति, एतादृशं किमपि नास्ति. अतः निर्वेदस्य वस्तुतः अमङ्गलप्रायमस्ति. तस्य प्रथमम् अनुपादेयत्वेऽपि, प्रथमम् उपादेयं नासीत्. किञ्चित् वर्णनं क्रियते चेत् उत्तमम् आरम्भे वक्तव्यम्, अन्ते बहु बोर् भवति किल, अन्ततो गत्वा निद्रा आगच्छति. आरम्भे एव उत्साहः भवेत्. अतः तस्य आरम्भे अनुपादेयत्वेऽपि उपादानं कृतमस्ति. किमर्थम् इति चेत् व्यभिचारित्वेऽपि स्थायित्व अभिधानार्थं. यद्यपि एषः निर्वेदः इति व्यभिचारिभावः, तथापि तस्य स्थायिभावत्वेनापि वर्णनं क्रियते. तदर्थं व्यभिचारित्वेऽपि तस्य स्थायित्वम् अभिधातुम् इच्छति, स्थायिभावः इति वक्तुमिच्छति. तदर्थम् इति तेन निर्वेदस्थायिभावोऽस्ति. शान्तोऽपि नवमो रसः. तावत्पर्यन्तम् अष्ट एव रसाः इति उक्तवान् आसीत्, इदानीम् नवमो अङ्गीकृतवान् अस्ति. तत्र स्थायिभावः कः इति चेत् निर्वेदः. यद्यपि विचारिभावानाम् आवलिमध्ये प्रथमं निर्वेदः इत्युक्तः अस्ति, किन्तु इदानीं किं वदनस्ति? निर्वेदः इति स्थायिभावः अस्ति. निर्वेदस्थायिभावः नवमः रसः अस्ति, क्षान्तः. कथं तस्य उदाहरणम् इति चेत् अहौ आहारे वा कुसुमशयने वा दृशति वालोस्ते वा बलवति रिपौ वा सुहृदि वा तृणे मात्रेणे
वा
मम समदृशो यान्ति
दिवसा
क्वचित् पुण्यारण्ये
क्वचित् पुण्यारण्ये
शिव शिव शिवेति प्रलपतः. कश्चन अत्यन्तं विरक्तः वदन् अस्ति सः. तस्य सर्वेषु समाना दृष्टिः तस्य. केषु केषु इति चेत् अहौ, अहिः नाम सर्पे वा अहौ वा हारे वा. कश्चन हारं वाणि धारयति चेदपि समानं, सर्पं धारयति चेदपि समानम्. अहौ वा हारे वा कुसुमशयने वा दृशति वा कुसुममयं तल्पं कल्पयति चेदपि समानं. दृशत् दृशत् नाम शिला. तेनार्थम् अन्यत् किमपि नास्ति, एकस्मिन् केवलं शिला. शिला चेत् दृशति वा मणौ वा लोष्टे वा. बहुमूल्यः कश्चन मणिः दीयते, तस्मिन् मणौ वा लोष्टे, लोष्टं मण्डहिण्टे, लोष्टे वा. अनन्तरं बलवति रिपौ वा सुहृदि वा. बलवान् शत्रुः अस्ति, तस्य शत्रोः विषये वा सुहृदि मित्रे वा एवमेव त्रिणे वा त्रैणे वा तृणम् यदस्ति आदर्शं तृणं त्रैणं स्त्रीणां समूहः त्रैणं त्रैणं नाम स्त्रीणां समूहः त्रैणं वा तत्र वा सर्वत्रापि समदृशः समानदृष्टिमतः मम षष्टिभक्तिः समदृशः मम दिवसाः यान्ति मम दिनानि एवमेव गच्छन्ति सन्ति सर्वत्र अहं समानदृष्टिः अस्मि कुत्र अहं क्वचित् पुण्यारण्ये क्वचित् पुण्यमये अरण्ये अहं तिष्ठामि तादृश किं कुर्वन् अस्मि इति चेत् शिवप्रलपणं कुर्वन् अस्मि शिव शिव इति ध्यानं कुर्वतः मम एवं दिनानि गच्छन्ति एतद् शान्तरसस्य उदाहरणं निर्वेदः तस्य मनः शान्तमस्ति सर्वेषु विषयेषु समानः एवम् अग्रे भावस्वरूपमाः इतः परं भावः किञ्चित् पश्यामः वा
पश्यामः
लब्धं वा द्वादशः भागः युनिट् 12 रतिर्देवादिविषया व्यभिचारे तथान्वितः अत्र रतिः शृङ्गाररसस्य स्थायिभावः इत्युक्तमस्ति रतिः इति स्थायिभावः किन्तु सः एव रतिः यदि देवादिविषयकः भवति चेत् सः व्यभिचारी भावः भवति ते रतिः इत्येकः एव भावः यदि नायिकाविषये नायकस्य भवति तथा तु रतिः किं भवति इति चेत् किं शृङ्गारसस्य सायिभावः रतिः सा एव रतिः यदि देवविषये भवति रतिशब्दस्य भवति प्रीतिः इति अर्थं गृह्णाति सा एव प्रीतिः देवविषये भवति चेत् तस्य भावः अस्ति नाम भावः भवति व्यभिचारिभावः भवति तस्य अनन्तरम् अन्यत् किं देवविषये चेत् भक्तिः इति कथ्यते अतः प्रेम स्वरूपं समानमेव प्रेयस्याः विषये चेत् प्रेम इति कथ्यते भगवतः विषये चेत् भक्तिः इति कथ्यते शिशोः विषये चेत् वात्सल्यम् इति कथ्यते तथा इदानीं किञ्चित् भेदः अस्ति रतिः देवादिविषये चेत् सः व्यभिचारी इति कथ्यते इति तथा अञ्जितः नाम उक्तः इत्यर्थः अभिव्यञ्जितः इत्यर्थः सः भावः प्रोक्तः आदिशब्दात् मुनि गुरु नृप पुत्रादिविषया तदेव मुनिविषये गुरुविषये नृपविषये पुत्रादिविषये अपि भवितुमर्हति कान्ताविषये तु व्यक्ता कान्ताविषये भवति चेत् उदाहरणं देवविषये कण्ठकोणविनिविष्टमीशते
कण्ठकोणविनिविष्टमीशते
कालकूटमपि मे महामृतम्
कालकूटमपि मे महामृतम्
अप्युपात्तममृतम् भवद्भुः
अप्युपात्तममृतम् भवद्भुः
भवेत्
वेदवृत्ति
यदि मे न रोचते भक्तः अत्यन्तं भक्त्या ईश्वरम् उद्दिश्य वदन्नस्ति हे देव कण्ठकोणविनिविष्टं चेत् ते कालकूटमपि मम महा अमृतम् कालकूटं वस्तुतः किमस्ति महाविषमस्ति तद् कालकूटं महाविषमपि भवतः कण्ठकोणे विनिविष्टमस्ति भवतः कण्ठस्य एकस्मिन् कोणे सन्निहितम् अस्ति चेत् मम तद् अमृतमेव कण्ठकोणविनिविष्टमस्ति चेत् हे ईश कालकूटमपि मम दृष्ट्या महा अमृतम् एवमेव भवद्वपुः भेदवृत्ति अस्ति चेत् भवतः शरीरात् दूरे स्थापितं चेत् तत् अमृतमस्ति चेदपि उपात्तम् अमृतं चेदपि मह्यं तद् न रोचते भवतः शरीरात् दूरे स्थापितं किञ्चिदस्ति चेत् तद् अमृतं चेदपि मह्यं न रोचते भवतः शरीरे अस्ति चेत् विषं चेदपि मह्यं तद् बहु प्रियमेव भवति भवतः शरीरात् दूरे अस्ति चेत् तद् अमृतं चेदपि मह्यं न रोचते भेदवृत्ति भेदतया वर्तते भेदवृत्तिः अस्ति चेत् तद् मे न रोचते मह्यं न रोचते एतद् देवविषये रतिः तस्य उदाहरणं सो गुरुविषये रति यथा मुनिविषये मुनिविषये हरत्यगं सम्प्रतिहेतुरेष्यतः शुभस्य पूर्वाचरितैस्कृतं शुभैः शरीरभाजां भवदीयदर्शनम् विनक्तिकालत्रितयेऽपि योग्यताम् शिशुपालवधमहाकाव्ये प्रथमसर्गे एव साक्षात् आकाशात् नारदः कृष्णस्य गृहम् आगच्छति. तदा कृष्णस्य वचनम् एतदस्ति, हे नारदमहर्षे, भवतः आगमनम् इत्युक्ते सामान्यं न. किं करोति भवदीयदर्शनम् इति चेत् अघं सम्प्रति हरति. इदानीं पापं सर्वमपि नाशयति. अघं पापं हरति, दूरीकरोति. शुभस्य एष्यतः हेतुः, एष्यतः शुभस्य हेतुः, आगच्छतः शुभस्य कारणं भवति भवतः आगमनम्. इत्युक्ते भवान् आगतवान् इत्युक्ते अग्रे मम किमपि शुभं भविष्यति. एष्यतः नाम बरलिरुव शुभस्य कारणवर्तते निन्न आगमनं. एष्यतः शुभस्य कारणं. तथैव पूर्वाचरितैः शुभैः कृतम्, पूर्वजन्मनि आचरितं पुण्यमिदस्ति, तदेव भवतः दर्शनरूपेण आगतम्. कृष्णः नारदमहर्षिः वदन्नस्ति इत्युक्ते वर्तमानकाले वर्तमानकालिकं पापं नाशयति, भविष्यत्काले यद् शुभं भविष्यति तद् शुभं दर्शयति, पूर्वकाले यद् पुण्यमाचरितं तस्य फलरूपेण आगतमस्ति. एवं भवदीयदर्शनं शरीरभाजां कृते, शरीरमन्तरिकेन्द्र मनुष्यरिगे भवदीयदर्शनं यदस्ति तत् कालत्रितयेऽपि योग्यतां विनक्ति. त्रिषु कालेषु अपि योग्यतां जनयति भवतः आगमनम्. भवान् आगतवान् इति चेत् मनुष्याः पुण्यवन्तः. कालत्रयेऽपि पूर्वमपि इदानीमपि अनन्तरमपि दत्तः इति अत्र मुनिविषये रतिः, तस्य विषये भक्तिः प्रदर्शिता अस्ति इति. पुत्रविषये रतिः यथा ज्ञायते किल कथं नास्ति. ये हि वत्स रघुनन्दन पूर्णचन्द्र, शुम्भानि मूर्धनि चिराय परिष्वजे त्वाम्, आरोप्य वा हृदि दिवानि समुद्वहामि, वन्देऽथ वा चरणपुष्करद्वयं ते, पुष्करकद्वयं. अत्र रामम् उद्दिश्य दशरथो वा कोऽपि वदन्नस्ति. किमिति वदन्नस्ति इति चेत्, हे रघुनन्दन पूर्णचन्द्र वत्स, एहि एहि आगच्छ आगच्छ, तव मूर्धनि चुम्बामि, शिरसि चुम्बामि, चिराय नाम दीर्घकालं यावत् त्वां परिष्वजे आलिङ्गामि, आरोप्य वा हृदि, हृदि आरोप्य दिवानिशम् उद्वहामि, वक्षसा उन्नयामि तत्सर्वकालपर्यन्तं, वन्दे अथवा चरणपुष्करं चरणकमलद्वयमपि वन्दे, तव चरणकमलयोः नमस्कारं करोमि. पुत्रश्चेदपि प्रीत्या वदन्नस्ति पिता वा माता वा पुत्रविषये. अनन्तरम् आञ्जितव्यभिचारीयता, आञ्जितं नाम यदि व्यक्ता इति वदन्ति, जाने कोपपराङ्मुखी प्रियतमा,
जाने कोपपराङ्मुखी प्रियतमा,
स्वप्नेभ्य दृष्टा मया,
स्वप्नेभ्य दृष्टा मया,
मामां संस्पृश पाणिनेति रुदति,
मामां संस्पृश पाणिनेति रुदति,
गन्तुं प्रवृत्ता पुरः,
गन्तुं प्रवृत्ता पुरः,
नो यावत् परिरभ्य चाटुशतकैः,
नो यावत् परिरभ्य चाटुशतकैः,
आश्वासयामि प्रियाम्,
आश्वासयामि प्रियाम्,
प्रातस्तावदहं शठेन विधिना,
प्रातस्तावदहं शठेन विधिना,
निद्रा दरिद्रीकृतः, प्रियतमः कदाचित् कोपपराङ्मुखी जाता, कोपेन मुखमेवं कृत्वा गच्छन्ती आसीत्. कोपपराङ्मुखी प्रियतमा सा अद्य स्वप्ने मया दृष्टा, स्वप्ने अहं तां दृष्टवान्, जानामि. मां संस्पृश पाणिनेति रुदति, सा कोपेन मां न स्पृशतु, मां नास्त्वं स्मृत इत्युक्त्वा पुरः गन्तुं प्रवृत्ता, अग्रे गन्तुं सा उद्युक्ता अभवत्. नो यावत् परिरभ्य अहम् ताम् यावत् परिरभ्य आलिङ्ग्य चाटुसतैः न आश्वासयामि. चाटो भिन्नभिन्नकथनमस्ति किल, तद् एतद् बहुकथनं चाटो कथनं. चाटुकथनेन यावत् ताम् न आश्वासयामि, आश्वासनं यावत् न करोमि तावता अहम् ಕಠಿಣ ನಿಧಿನ ನಿದ್ರಾ ದರಿದ್ರೀಕೃತ ನಿದ್ದೆ ಇಲ್ಲದವನಾಗಿ ಮಾಡಲ್ಪಟ್ಟೆ. ಉದಾಹರಣೆ ಅಭವತ್ ಕ್ರಿಯಾ ಕೋಪ ಸಮಾಪ್ತ ಇವ ತಾವತಿ ಕಲೆ ನಿದ್ರಾ ಭವತ್ಕರೋಮಿ. ಅತ್ರ ಷಠೇನ ವಿಧಿನ ದುಷ್ಟೇನ ವಿಧಿನ ನಿದ್ರಾ ದರಿದ್ರೀಕೃತ. ಅತ್ರ ವಿಧಿಂ ಪ್ರತಿ ಅಸೂಯ ಅಂಜಿತ ಭವತಿ ವ್ಯಕ್ತ ನಭವತಿ ಕಿಂಚಿತ್ ವ್ಯಕ್ತವಾಗುತ್ತದೆ ಅಂತ ಸಾಕ್ಷಾತ್ ಜ್ಞಾನಕ್ಕೆ ವಿದ್ಯತೆ. ಭಾವ ಅಗ್ರೆ ಪರಂ ರಸಾಭಾವ ಭಾವಾಭಾಸಯೋಃ ಸರ್ವಕರಣೆ ಅಗ್ರಿಮ.